अथ चन्द्राष्टाविंशति नाम स्तोत्रम् अस्य श्रीचन्द्राष्टाविंशति नाम स्तोत्रस्य गौतम ऋषिः सोमो देवता विराट छन्दः चन्द्रप्रीत्यर्थे जपे विनियोगः चन्द्रस्य शृणुनामानि शुभदानि महीपते यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः सुधाकरश्च सोमश्च ग्लौरज कुमुदप्रियः लोकप्रिय शुभ्रभानुश्चन्द्रमारोहिणीपतिः शशि हिमकरो राजा द्विजराजो निशाकरः आत्रेय इन्दुशीतांशूरोषदीश कलानिधिः जैवात्रिकोरमाभ्राता क्षीरोदार्णवसम्भव नक्षत्रनायक शम्भु शिरश्चूडामणिर्विभुः तापहर्ता नभो दीपो नामान्येतानि यः पठेत् प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितं ग्रहादीनां च सर्वेषां भवेच्चन्द्र बलं सदा इति श्रीचन्द्राष्टाविंशति नाम स्तोत्रं सम्पूर्णम्।